ॐ जायेयं रत्नपीठे शुककलपठितं शृण्वतीं श्यामलाङ्गीं न्यस्तैकाङ्घ्रिं सरोजे शशिशकलधरां वल्लकीं वादयन्तीं कल्लाराबद्धमालां नियमितविलसत् चोलिकां रक्तवस्त्रां मातङ्गीं शङ्खपात्रां मधुरमधुमदां चित्रकोद्भासि ऋषिरुवाच आज्ञाप्तास्ते ततो दैत्याः चण्डमुण्डपुरोगमाः चतुरङ्गबलोपेत ययुरभ्युद्यतायुधः ददृशुस्ते ततो देवी ईषद्दासां व्यवस्थिता सिंहस्योपरि शैलेन्द्रशृङ्गे महति काञ्चने ते दृष्ट्वा तां समादातुम् उद्यमं चक्रुरुद्यताः आकृष्टचापासिधराः तथान्ये तत्समीपगाः ततः कोपं चकारोच्चैः अम्बिका तानरीं प्रति कोपेन चास्यावदनम् महीवर्णम् अभूत् तदा भ्रुकुटी कुटिला तस्य ललाटफलकादृतम् काली करालवदना विनिष्क्रान्तासि पाशिनी विचित्र खड्वाङ्गधरा नरमाला विभूषणा द्वीपि चर्म परिधाना शुष्कमांसाति भैरवा अतिविस्तारवदना जिह्वालन भीषणा निमग्ना रक्तनयना नादा पूरित दिङ्मुखा सा वेगेनाभिपतिता घातयन्ती महासुरान् सैन्ये तत्र सुरारीणाम् अभक्षयति तद्बलम् पार्ष्णिग्राहाम् कुशग्राहि योधखण्डा समल्भितान् समादायैकहस्तेन मुखे चिक्षेपवर्णान् तथैव योधम् तुरगैः रथम् सारथिना सह निक्षिप्य वक्त्रे दशनैः चर्वयन्त्यतिभैरवम् एकम् जग्राहकेशेषु ग्रीवायामथ चापरम् पादेनाक्रम्य चैवान्यम् पुरसान्यम् अपोथयत् तैर्मुक्तानि च शस्त्राणि महास्त्राणि तथा सुरैः मुखेन जग्राहरुषा दशनैर्मथितान्यपि बलिनां तद्बलं सर्वम् असुराणां दुरात्मनां ममर्दा भक्षयच्चान्यान् अन्यांश्चाताडयत्तथा असिनानि हता केचित् केचित् खड्वाङ्गताडिताः जग्मुर्विनाशमसुरा दन्ताग्राभिहतास्तथा क्षणेन तद्बलम् सर्वम् असुराणाम् निपातितम् दृष्ट्वा चण्डोऽभिदुद्राव ताम् कालीमतिभीषणाम् शरवर्षैर्महाभीमैः भीमाक्षीम् ताम् महासुरः छादयामास चक्रैश्च मुण्डक्षिप्तैः सहस्रशः तानि चक्राण्यनेकानि विषमानानि तन्मुखम् बभूव्यथार्कबिम्बानि सुबहूनि घनोदरम् ततो जहासातिरुषा भीमम् भैरवनादिनि कालीकरालवक्त्रान्त दुर्दर्श दशनोज्ज्वला उत्थाय च महासिंहम् देवी चण्डमधावत् गृहीत्वा चास्य केशेषु शिरस्तेनासिनाच्छिनत् अथ मुण्डोऽभ्यधावत्ताम् दृष्ट्वा चण्डम् निपातितम् तमप्यपादयद्भूमौ सा खड्गाभिहतम् रुषा हतशेषम् ततः सैन्यम् दृष्ट्वा चण्डम् निपातितम् मुण्डम् च सुमहावीर्यम् दिशो भेजे भयातुरम् शिरश्चण्डस्य काली च गृहीत्वा मुण्डमेव च प्राक प्रचण्डाट्टहासमिश्रम् अभ्येत्य चण्डिका मया तवात्रोपहृतौ चण्डमुण्डौ महापशु युद्धयज्ञे स्वयम् शुम्भम् निशुम्भम् च हरिष्यसि ऋषिरुवाच तावानीतौ ततो दृष्ट्वा चण्डमुण्डौ महासुरौ उवाच कालीम् कल्याणी ललितम् चण्डिकावचः यस्माच्चण्डम् च मुण्डम् च गृहीत्वा त्वमुपागता चामुण्डेति ततो लोके ख्याता देवि भविष्यसि।